अथ तुलसीस्तुति श्रीभगवानुवाच वृन्दारूपाश्च वृक्षाश्च यदैकत्र भवन्ति च विदुर्बुधास्तेन वृन्दां मत्प्रियान्तां भजाम्यहम् पुरा बभूवया देवी त्वादौ वृन्दावने वने तेन वृन्दावनी ख्याता सौभाग्यान्तां भजाम्यहम् असंख्येषु च विश्वेषु पूजिताया निरन्तरम् तेन विश्वपूजिताख्याय जगत्पूज्यां भजाम्यहम् असंख्यानि च विश्वानि पवित्राणि यया सदा तां विश्वपावनीं देवीं विरहेण स्मराम्यहम् देवानतुष्टाः पुष्पाणां समूहेन यया विना तां पुष्पसारां शुद्धाय च द्रष्टुमिच्छामि शोकतः विश्वे यत्प्राप्तिमात्रेण भक्तानन्दो भवेद्ध्रुवम् नन्दिनी तेन विख्याता सा प्रीता भवताद्धिमे यस्या देव्यास्तुला नास्ति विश्वेषु निखिलेषु च तुलसी तेन विख्याता तायामि शरणम् कृष्णजीवनरूपाया शश्वत्प्रियतमासते तेन कृष्णजीवनीति मम रक्षतु जीवनम् इति श्री ब्रह्मवैवर्त महापुराणे प्रकृतिखण्डे भगवत्कृता तुलसीस्तुतिः सम्पूर्णा।